श्री गोपाल सहस्रनाम स्तोत्रम ध्यानम कस्तूरी तिलकम ललाट पटले वक्षस्थले कौस्तुभम नासाग्रे वरमौक्तिकं करतले वेणुहुकरे कंकणम सर्वांगे हरिचंदनम सुललितं कंठे च मुक्तावली गोपस्त्री परिवेष्टितो विजयते गोपाल चूड़ामणिः स्तोत्रम् ओम क्लीम देवः कामदेवः कामबीज शिरोमणिः श्री गोपालो महीपालः सर्ववेदांग पारगः धरणीपालको धन्यः पुंडरीकः सनातनः गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतो मुखः आदिकर्ता महाकर्ता महाकालः प्रतापवान् जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः मत्स्यो भीमः कुहू भर्ता हर्ता वाराह मूर्तिमान् नारायणो हृषीकेशो गोविंदो गरुड़ध्वजः गोकुलेन्द्रो महाचंद्रः शर्वरी प्रियकारकः कमलामुख लोलाक्ष पुंडरीक शुभावह दुर्वासा कपिलो भौमः सिंधुसारंग संगमः गोविंदो गोपतिर्गोत्रः कालिंदी प्रेम पूर्वकः गोपस्वामी गोकुलेन्द्रो गोवर्धन वरप्रदः नंदादि गोकुलत्राता दाता दारिद्र्य भंजनः सर्वमंगलदाता च सर्वकाम प्रदायकः आदिकर्ता महीभर्ता सर्वसागर सिंधुजः गजगामी गजोद्धारी कामी काम कलानिधिः कलंकरहित चंद्रो बिंबास्यो बिंब सत्तमः मालाकारः कृपाकारः कोकिलास्वरभूषणः रामो नीलांबरो देवो हली दुर्दममर्दनः सहस्राक्षपुरी भेत्ता महामारी विनाशनः शिवः शिवतमो भेत्ता बालाराति प्रपूजकः कुमारी वरदायी च वरिण्यो मीनकेतनः नरो नारायणो धीरो राधापतिरुदारधीः श्रीपतिः श्रीनिधे श्रीमान् मापतिः प्रतिराजः वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः रेवती रमणो रामश्चञ्चलश्चारुलोचनः रामायण शरीरोऽयं रामी रामः श्रियः पतिः शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः राधा राधयितो राधि राधा चित्त प्रमोदकः राधारति सुखोपेतो राधा मोहन तत्परः राधा वशीकरो राधा हृदयाम्भोज षट्पदः राधा लिंगन सम्मोहो राधा नर्तन कौतुकः राधा संजात संप्रीति राधा काम फलप्रदः वृन्दापतिः कोशनिधि कोकशोक विनाशकः चंद्रापतिश्चंद्रपतिश्चंड कोदंड भंजनः रामो दाशरथी रामो भृगुवंश समुद्भवः आत्मा रामो जितक्रोधो मोहो मोहांध भंजनः वृषभानुर्भवो भावः काश्यपिः करुणानिधिः कोलाहलो हलीहाली हेली हलधर प्रियः राधा मुखाब्ज मार्तंडो भास्करो रविजो विधुः विधिर्विधाता वरुणो वारुणो वरुणी प्रियः रोहिणी हृदयानंदी वसुदेवात्मजो बली नीलांबरो रौहिणेयो जरासंध वधूमलः नागो नवांभो विरुदो वीरहावरदो बली गोपथो विजयी विद्वान् शिपिविष्टः सनातनः परशुराम वचो ग्राही वरग्राही श्रृगालः दमघोषोपदेष्टा च रथग्राही सुदर्शनः वीरपत्नी यशस्त्राता जराव्याधि विघातकः द्वारकावास तत्वज्ञो हुताशन वरप्रदः यमुना वेग संघारी नीलांबरधरः प्रभुः विभूषरासनो धन्वी गणेशो गणनायकः लक्ष्मणो लक्ष्मणो लक्ष्यो रक्षो वंश विनाशनः वामनो वामनी भूतो वमनो वमनारुहः यशोदानन्दनः कर्ता यमलार्जुन मुक्तिदः उलूखली महामानी दामबद्धा वैषमी भक्तानुकारी भगवान केशवो चलधारकः केशिहा मधुहा मोहि वृषासुर विघातकः अघासुर विनाशी च पूतना मोक्षदायकः कुब्जा विनोदी भगवान कंस मृत्युर्महामखी अश्वमेधो वाजपेयो गोमेधो नरमेधमान कंदर्प कोटिलावण्यश्चंद्रकोटि सुशीतलः रविकोटि प्रतीकाशो वायुकोटि महाबलः ब्रह्मा ब्रह्मांडकर्ता च कमलावांछितप्रदः कमला कमलाक्षश्च कमलामुखलोलुपः कमलाव्रतधारी च कमलाभ पुरंदरः सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः तारकारिः सुरत्राता मारी च क्षोभकारकः विश्वामित्र प्रियो दान्तो रामो राजीवलोचनः लंकाधिप कुलध्वंसी विभीषण वरप्रदः सीतानंदकरो रामो वीरो वारिधि बंधनः खरदूषण संघारी साकेत पुरवासनः चंद्रावलीपतिः कूलः केशी कंसवधूमरः माधवो मधुहा माध्वी माध्वीको माधवो मधुः मुञ्जाटवी गाहमानो धेनुकारिर्धरात्मजः वंशीवट विहारी च गोवर्धन वनाश्रयः तथा तालवनोद्देशी भंडारी वन शंखः तृणावर्त कथाकारी वृषभानुसुतापतिः राधा प्राण समो राधा वदनाब्ज मधुव्रतः गोपरंजन दैवज्ञो लीला कमल पूजितः क्रीडा कमल संदोहो गोपिका प्रीतिरंजनः रंजको रंजनो रंगो रंगी रंग महीरुहः कामः कामारी भक्तोऽयं पुराण पुरुषः कविः नारदो देवलो भीमो बालो बालमुखाम्बुजः अम्बुजो ब्रह्म साक्षी च योगी दत्तवरो मुनिः ऋषभः पर्वतो ग्रामो नंदी पवनवल्लभः पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रो हि भूषितः गणानां त्राणकर्ता च गणेशो ग्रहिरो ग्रही गणाश्रयो गणाध्यक्षः क्रोडीकृत जगत्त्रयः यादवेन्द्रो द्वारकेन्द्रो मथुरा वल्लभो धुरी भ्रमरः कुन्तली कुन्ती सुतरक्षी महामखी यमुना वरदाता च काश्यपस्य वरप्रदः शंखचूट वधोत्तामो गोपी रक्षण तत्परः पांचजन्यकरो रामी त्रिरामी वनजोज्जयः फाल्गुनः फाल्गुनः सखो विराधवधकारकः रुक्मिणी प्राणनाथश्च सत्यभामां प्रियंकरः कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः अंकुशो भूसुरो भामो भामको भ्रामको हरिः सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यः प्रभुः महाधनो महावीरो वनमाला विभूषणः तुलसीदाम शोभाड्यो जालसंधर विनाशनः शूरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः रविस्तमोहावहनिश्च वाडवो वडवानलः दैत्यदर्प विनाशी च गरुडो गरुडाग्रजः गोपीनाथो महीनाथो वृन्दानाथो वरूधकः प्रपंची पंचरूपश्च लता गुल्मश्च भूपतिः गंगा च यमुना रूपो गोदावेत्रवती तथा कावेरी नर्मदा तापी गंडकी सरयूस्तथा राजसस्तामसः सत्त्वी सर्वांगी सर्वलोचनः सुधामयो मृतमयो योगिनी वल्लभः शिवः बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः वंशी वंशधरो लोको विलोको मोहनाशनः रवरावो रवो रावो बालो बालबलाहकः शिवो रुद्रो नलो नीलो लांगली लंगलाश्रयः पारदः पावनो हंसो हंसारूढो जगत्पतिः मोहिनी मोहनो मायी महामायो महामखी वृषो वृषाकपिः कालः काली दमनकारकः कुब्जा भाग्यप्रदो वीरोरजकक्षयकारकः कोमलो वारुणो राजा जलको जलधारकः हारकः सर्वपापघ्नः परमेष्ठी पितामहः खड्गधारी कृपाकारी राधारमण सुन्दरः द्वादशारण्य संभोगी शेषनाग फलालयः कामः श्यामः सुखः श्रीतः श्रीपतिः श्रीनिधिः कृतिः हरिर्हरो नरो नारो नरोत्तम इषुप्रियः गोपाली चित्तहर्ता च कर्ता संसारतारकः आदिदेवो महादेवो गौरी कुरुनाश्रयः साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रियः वर्धन्यो वर्धनो वर्धि वर्धिन्यः सुमुखप्रियः वर्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः गोपालरमणी भर्ता साम्बकुष्ठविनाशनः रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः श्रीकर्ता विश्वभर्ता च नरो नारायणो बली गणो गणपतिश्चैव दत्तात्रेयो महामुनिः व्यासो नारायणो दिव्यो भव्यो भावुकधारकः स्वः श्रेयसं शिवं भद्रं भावुकं भविकं शुभम् शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादः ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः नन्दो नन्दी महानन्दी मादी मादनकः किली मिली हिली गिली गोली गोलो गोलालयो गुली गुग्गुली मारकी शाखी वटः पिप्पलकः कृते म्लेक्षः कालहर्ता च यशोदा यश एव च अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः हंसो नारायणो लीलो नीलो भक्तिपरायणः जानकी वल्लभो रामो विरामो विघ्ननाशनः सहस्रांशुर्महाभानुर्वीरबाहुर्महोदधिः समुद्रोऽब्धिकूपारः पारावारः सरित्पतिः गोकुलानन्दकारी च प्रतिज्ञापरिपालकः सदा रामः कृपारामो महारामो धनुर्धरः पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः कम्बलाश्वतरो रामो रामायण प्रवर्तकः द्यौर्दिवो दिवसो दिव्यो भव्यो भावि भयापहः पार्वती भाग्य सहितो भ्राता लक्ष्मी विलासवान् विलासी साहसी सर्वी गर्वी गर्वित लोचनः मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः यमो यमारिर्यमनो यामी याम विधायकः वंशुली पांशुली पांशुः पाण्डुरर्जुन वल्लभः ललिता चन्द्रिका माली माली मालाम्बुजाश्रयः अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिः प्रभु मणिर्दिन्मणिश्चैव केदारो बदराश्रयः बदरीवन सम्प्रीतो व्यासः सत्यवती सुतः अमरारी निहन्ता च सुधा सिन्धुर्विधूदयः चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः श्रीकर्ता श्रीपतिः श्रीतः श्रीदेवो देवकी सुतः श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः वासुदेवो प्रमेयात्मा केशवो गरुडध्वजः नारायणः परन्धाम देवदेवो महेश्वरः चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः भगवान् सर्वभूतेषु गोपालः सर्वपालकः अनन्तो निर्गुणो अनन्तो निर्विकल्पो निरञ्जनः निराधारो निराकारो निराभासो निराश्रयः पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः क्षणवाणिः सार्वभौमो वैकुण्ठो भक्तवत्सलः विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः देवकी गर्भसम्भूतो यशोदावत्सलो हरिः शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः निर्वाणनायको नित्यो नीलजीमूतसन्निभः कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ऋषिकेशः प्रीतवासो वसुदेवप्रियात्मजः नन्दगोपकुमारार्यो नवनीताशनः प्रभुः पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः अनिरुद्धश्चक्ररथः सारङ्गपाणिश्चतुर्भुजः गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः तृणावर्तान्तको भीमो साहसो बहुविक्रमः शकटासुरसंहारी बकासुरविनाशनः धेनुकासुरसंघातः पूतनारिः नृकेसरी पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः अप्रमेयः प्रभुः प्राज्ञो प्रत्यर्कः स्वप्नवर्धनः धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवता गुरुः क्षीराब्धिशयनो धाता लक्ष्मीवाल्लक्ष्मणाग्रजः धात्रीपतिर्मेयात्मा चन्द्रशेखर पूजितः लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः कोटिमन्मथ सौन्दर्यो जगन्मोहन विग्रहः मन्दस्मित ततमो गोपो गोपिका परिवेष्टितः फुल्लारविन्दनयनश्चाणोरान्ध्रनिषूदनः इन्दीवरदलश्यामो बहिर्वरहावतंसकः मुरलीनिनदहलादो दिव्यमाल्याम्बराश्रयः सुकपोलयुगः शुभ्रो युगलः सुललाटकः कम्बुग्रीवो विशालाक्षो लक्ष्मीवांशुभलक्ष्मणः पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः किरीटकुण्डलधरः कटकाङ्गदमण्डितः मुद्रिकाभरणोपेतः कटिसूत्रविराजितः मञ्जरीरञ्जितपदः सर्वाभरणभूषितः विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः समस्तजगदानन्दः सुन्दरो लोकनन्दनः यमुनातीरसञ्चारी राधामन्मथवैभवः गोपनारी प्रियोदान्तो गोपीवस्त्रापहारकः शृङ्गारमूर्तिः श्रीधाम तारको मूलकारणम् सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः नरकासुरहारी च मुरारिर्वैरिमर्दनः आदितेयप्रियो दैत्य भीकरश्चेन्दुशेखरः जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः रुक्मिणीरमणः सत्य भामाजाम्बवती प्रियः मित्रविन्दाग्नजीति लक्ष्मणासमुपासितः सुधाकरकुले जातो अनन्तप्रबलविक्रमः सर्वसौभाग्यसम्पन्नो द्वारिकायामुपस्थितः भद्रासूर्यसुतानाथो लीलामानुषविग्रहः सहस्रषोडशस्त्रीषु भोगमोक्षैकदायकः वेदान्तवेद्यः संवेद्यो वैद्यब्रह्माण्डनायकः गोवर्धनधरो नाथः सर्वजीवदयापरः मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः महानुभावः कैवल्यदायको लोकनायकः आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः असमानः समस्तात्मा शरणागतवत्सलः उत्पत्तिस्थितिसंहारकारणं सर्वकारणं गंभीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः विश्वक्सेनः सत्यसन्धः सत्यवान् सत्यविक्रमः सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः दमघोषसुतद्वेषी बाणबाहुविखण्डनः भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः कौन्तेयप्रियबन्धुश्च पार्थसन्ध्यनसारथिः नारसिंहो महावीरः स्तम्भजातो महाबलः प्रह्लादवरदः सत्यो देवपूज्यो भयङ्करः उपेन्द्र इन्द्रावरजो वामनूबलिबन्धनः गजेन्द्रवरदः स्वामी सर्वदेव नमस्कृतः शेषपर्यङ्कशयनो वैनतेयरथोज्जयी अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः योगिहृत्पङ्कजावासो योगमाया समन्वितः नादबिन्दुकलातीतः चतुर्वर्गफलप्रदः शुषुम्णामार्गसञ्चारी देहस्यान्तरसंस्थितः देहेन्द्रियमनः प्राणसाक्षी चेतः प्रसादकः सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः तत्त्वत्रायात्मको व्यक्तः कुण्डली समुपाश्रितः ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् समस्तभुवनाधारः समस्तप्राणरक्षकः समस्तसर्वभावज्ञो गोपिका प्राणवल्लभः नित्योत्सवो नित्यसौख्यो नित्यश्रीनित्यमङ्गलः व्योहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः पूर्णानन्दघनीभूतो गोपवेशधरोहरिः कलापकुसुमश्यामः कोमलः शान्तिविग्रहः गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः वेणुवादरतः श्रेष्ठो देवानां हितकारकः बालक्रीडासमासक्तो नवनीतस्य तस्करः गोपालकामिनीजारश्चोरजारशिखामणिः परञ्ज्योतिः पराकाशः परावासः परिस्फुटः अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः सप्तकोटिमहामन्त्रशेखरो देवशेखरः विज्ञानज्ञानसन्धानस्तेजो राशिर्जगत्पतिः भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः भक्ताधीनमनः पूज्यो भक्तलोकशिवङ्करः भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः अपारकरुणासिन्धुः भगवान् भक्ततत्परः इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे गोपालसहस्रनामस्तोत्रम् सम्पूर्णम्।
जय श्रीकृष्ण।